सर्वेभ्यः नमस्कारः. अस्माकं पाकः आरभ्यते. इदानीम् अन्या काचन अस्ति सूचना. सर्वप्रथमं तत्र अनेकैः अत्र नाम फ्री कान्फरेन्स् काल् यत् अस्माभिः उपयुज्यते तत्र अनेकैः क्लेशः अनुभूयते इति मया श्रुतम्. अत एव अद्य पुनरेकवारं तदेव उपयुज्य तदनन्तरं पृच्छामि, तत्र ईमेल् द्वारा पृच्छामि. इदानीं क्लेशः आसीत् न वा, आसीत् चेत् तर्हि तत्र ज़ूम् इति तत्र एव गच्छामः, परन्तु अद्य एव अत्र भवामः इति मन्ये इति एकम्. अपि च अद्य किञ्चित् तत्र यत् उक्तं मम भगिन्या, तत्र भारते तु नववादने एव तत्र किम् एलेक्ट्रिसिटि तत्र मा भूत् इति कृत्वा अस्माभिः एव किञ्चित् शीघ्रं गच्छामः. भवतु नाम इदानीम् इत् संज्ञाप्रकारकम् इत् संज्ञाप्रकरणम् इति अस्माकं विषयः अस्ति, अत्र एव पठामः. इदानीं प्रथम तत्र किं गते सप्ताहे अस्माकं तत्र आरम्भः कृतः अवस्था प्रागते एव तत्र कृतः आरम्भः, परं तत्र रेकार्डिङ्ग् न जातम् अत एव पुनरावर्तनं कृतम्. इदानीं किञ्चित् पृष्ट्वा किञ्चित् दृष्ट्वा किञ्चित् पुनरावर्तनं कृत्वा अग्रे गच्छामः इति मन्ये. तत्र आगतः कोऽपि वा? नमस्कारः वेदा भगिनी. मया इदानीमेव उक्तं तत्र भवत्या अपि उक्तं तत्र भवत्याः क्लेशाः अनुभूताः अनेके, परन्तु भवती तत्र एककीनी इति न, अनेकैः क्लेशः अनुभूयते. अत एव पश्यामः इदानीम् अद्य एव क्लेशः भवेत् इति चेत् तर्हि किं भविष्यति वर्गे ज़ूम् माध्यमेन करिष्यामः. इदानीं तु अत्र करिष्यामः. भवतु नाम इदानीं आरभामहे. तत्र प्रथमं सूत्रम् अस्माभिः दृष्टं, तत्र अस्माभिः सर्वप्रथमम् उक्तं तत्र केचन परिभाषिकाः शब्दाः अस्माभिः दृष्टाः, यथा उपदेशः इति एकं पदम् आसीत्. तत्र उपदेशः नाम किं, तत्र पमेला भगिनी वदति वा?
महोदय, उपदेश इत्युक्ते धातु पाणिनि धातु पाठे धातु प्रत्यय आदेश आगम
एवं, परन्तु तस्य एवं सम्यक् नाम तत् तेषां यत् रूपं पाणिनिना एव उक्तम् उच्चारितं वा तद्रूपम् औपदेशिकं रूपम् इति उच्यते, अथवा तेषां प्रथमाम् उच्चारणम् उपदेशः इति उच्यते. सम्यक्, परन्तु तत्र केषाम् उपदेशः भवति तत् सम्यक् एव भवत्या उक्तम्. इदानीम् उपदेशः इति एकम्, अन्यत् तु आसीत् अनुबन्धः वा इत् इति वा, एतत् किं बोधयति भगिनी एव वदतु पमेला भगिनी.
नामकरणसूत्रमस्ति,
परन्तु नामकरणम् इति पदं कस्य नामकरणम्?
अन्त महेश्वरसूत्राणि सर्वे अन्त प्रत्याहारस्य अन्तवर्णस्य इति भवति.
तत्तु इतः उदाहरणं, परन्तु इतः अनेकदा भवन्ति, इतः वा अनुबन्धवर्णाः, तत्र तेषां स्वभावः कः इति तत्र इदं सामान्यतया वदामः इति चेत् किञ्चित् तत्र वक्तुं शक्यते वा? तत्तु सत्यमेव तत्र महेश्वरसूत्रेषु अन्ते विद्यमानाः व्यञ्जनानि तानि इतः एव.
औपदेशिकस्थितायां वयं दृष्टुं दृश्यामः, किन्तु लौकिक विषये अहं न दृष्टामः, तेषां लोपः भवति लुक् भवति.
सम्यक् भगिनि, तदेव. इदानीं तत्र उपदेशिकावस्थायां वा उपदेशे वा यत् रूपं वर्तते तत्र अनेकदा कनिचन व्यञ्जनानि वा अथवा वर्णाः केचन सन्ति ये लोके प्रयोगे एव न दृश्यन्ते, तेषां नाम भवति परिभाषिकं नाम भवति अनुबन्धः वा अथवा इत् वस्तुतः इत् इति पाणिनिना एव दत्तं नाम. सम्यक् भगिनि, धन्यवादः. तर्हि इदानीं तत्र एतेषाम् इत् इत् वर्णानं कुत्र किं विधानं अष्टाध्याय्याम् एव वर्तते, परन्तु तेषां तेषां विधानस्य कृते सप्तसूत्राणि अथवा अष्टौ सूत्राणि वस्तुतः तत्र विरचितानि पाणिनिना. इदानीं तानि सर्वाणि एकस्मिन् एव स्थाने उपस्थितानि, अत एव एतत् स्थानम् एतत् एषः ग्रन्थभागः प्रकारणम् इति उच्यते. इदानीं प्रकारणम् इति अपि परिभाषिकं पदम् इव इति तथा वक्तुं शक्यते. इदानीं ग्रन्थेषु इदानीं यत्र एकः भागः एकं विषयम् एव अधिकृत्य वर्तते, तर्हि एतत् एषः भागः प्रकारणम् इति उच्यते. तत्रापि व्याकरणग्रन्थेषु विद्यते, परन्तु तत्र शास्त्रीयग्रन्थेषु सः एव शब्दः प्रयुज्यते. वेदान्तग्रन्थेषु स एव मीमांसायाम् अपि प्रकारणम् इति एकं विषयाम् अधिकृत्यं यः ग्रन्थैकदेशः वर्तते सः. इदानीं तत्र इत्संज्ञाप्रकारणम् अस्माभिः तर्हि तत्र दृष्टः अथवा दृष्टः इति न, तत्र किञ्चित् अस्माभिः कश्चन परिचयः कृतः. तत्र प्रथमं सूत्रम् आसीत् उपदेशे चनुनासिक इत्. तस्य सूत्रस्य अर्थः कः? तत्र शर्मिला भगिनी वदति वा?
आम् महोदय, उपदेशे वर्ण अनुबन्धवर्ण अच् अस्ति चेत् तस्य लोपः भवति, तस्य इत् संज्ञा भवति.
एतत् अस्य सूत्रस्य तत्र किम् एषः
उपदेशे अच्वर्णस्य अनुनासिक अस्ति चेत् तस्य इत् संज्ञा भवति.
सम्यक्, तदेव तदेव तस्य इत्संज्ञा भवति. इदानीम् अनुनासिकः वर्णः अस्ति चेत् अस्ति इति कथं जानीमः?
बहुधा अनुमानम् इदानीं स्वर
सम्यक् सम्यक् भगिनि, अनुमानम् इति तदेव तथा एव वक्तव्यम्. इदानीं तत्र किम् उदाहरणं तत्र दत्तं
इति औपदेशिकधातु, परन्तु प्रयोगे गम् धातु तदेव लृ वा अनुनासिक इति अनुमानम्
अस्माकम्. सम्यक् सम्यक् भगिनि, तदेव इदानीं तदेव अस्माभिः उक्तम्. इदानीम् अद्यतने काले तत्र सामान्यतः अनुनासिकस्य तत्र किञ्चन चिह्नम् अस्ति, अस्माभिः चन्द्रबिन्दु इति चिह्नं तत्र ज्ञायते. तत्तु चिह्नं सामान्यतः अद्यतनकाले तत्र नास्ति, नाम कुत्र नास्ति, पुस्तकेषु नास्ति, अपि च न केवलं तत्र न केवलं प्रकाशितपुस्तकेषु, तादृशी अवस्था अपि तत्र हस्तलिखितपुस्तकेषु एव वर्तते. तत्र बहुधा मयापि दृष्टं, तत्र नास्ति चन्द्रबिन्दुचिह्नम्. अत एव तस्य अनुमानम् एव क्रियते. अनुमानं वा सामान्यतः अनुमानं तत्र मयापि उक्तम्, अनुमानं तथा तत्र स्वेच्छया न कर्तव्यम् इति मन्ये. तत्र कुत्रचित् व्याख्यानि दृष्ट्वा तथापि ज्ञातुं शक्यते, परन्तु सामान्यतः तदेव अस्ति, स एव अस्ति प्रकारः. इदानीं गम्रि इति धातुः धातुपाते दृश्यते, परन्तु तत्र लोके सर्वदा गम् इत्येव धातुः अस्माभिः श्रूयते, अत एव ज्ञायते भोः अयं ऋकारः अन्ते विद्यमानः ऋस्वारः अनुनासिकः स्यात् इति. अत एव अपि च अस्ति तत्र कश्चन काचन परिभाषा अस्ति, कश्चन उक्तिः अस्ति, प्रतिज्ञानुनासिक्याः पाणिनीयाः, नाम तत्र आनुनासिक्यं पाणिनीयैः, नाम ये पाणिनीव्याकरणं पठन्ति ते पाणिनीयाः, इदानीं तैः आनुनासिक्यं प्रतिज्ञाया एव ज्ञायते. प्रतिज्ञा नाम किं तत्र लोकप्रसिद्धिः अथवा प्रसिद्धिः, अत एव मे बि कन्वेन्शन् इति तथापि वक्तुं शक्यते. अतः इदानीम् आनुनासिक्यं पाणिनीयैः तथा स्वयमेव न दृश्यते, परन्तु प्रतिज्ञाय लोकप्रसिद्ध्या एव ज्ञायते. अत एव उच्यते सा भनितिः अनेकदा श्रूयते, प्रतिज्ञानुनासिक्याः पाणिनीयाः इति. सम्यक्, इदानीम् उपदेशाचुनासिक हेत् इति सम्यक् प्रतिपादितम्, अपि च उदाहरणं दत्तम्. अत एव तत्र अन्यः प्रश्नः अस्ति, शर्मिला भगिनि, इदानीम् उपदेशाचुनासिक इति सूत्रं किं प्रकारकं, तीजिसूत्रं वा अथवा परिभाषासूत्रं वा अन्यत् किं? न, अन्यत् किं दिविसूत्रमिति न, तद् न,
केवलं नामकरणम्.
सम्यक्, नामकरणम् इति चेत् तर्हि सूत्रस्य नाम किं?
विधायकसूत्रसूत्रं
तत्तु सम्यक्, तदेव मया उक्तम् इदानीं, वस्तुतः अष्टाध्यायं सर्वाणि सूत्राणि विधिसूत्राणि इति तथापि वक्तुं शक्यते, परन्तु विशिष्टः कश्चन विधिः अत्र वर्तते, विशिष्टं विधानं नाम संज्ञाविधानम्, अत एव संज्ञासूत्रम् इति सामान्यतः उच्यते. सम्यक्, संज्ञासूत्रमिति चेत् इदानीं यद्यापि अस्माभिः तत्र इदानीं चिन्तयतु, उपदेशाजिम्नासिक इति सूत्रं दृश्यते, अपि च ज्ञायते इदं सूत्रं संज्ञासूत्रम् इति. एतत् ज्ञात्वा कथां ज्ञायते अस्मिन् सूत्रे संज्ञा का, अपि च संज्ञस्य अर्थः कः? आगच्छति वा मम प्रश्नः? इत् कथां ज्ञायते इदं संज्ञासूत्रम् इति चेत् कथां जानीमः?
लास्ट् वर्ड्.
अन्यः अपि जानाति वा?
बहुश अष्टाध्यायं पूर्वम् इत् संज्ञा प्रकरणम् इति उच्यते खलु, तदैव अहं ज्ञातुं शक्नुमः.
तदापि सम्यक्, परन्तु अन्यः कश्चन प्रकारः मया उक्तः, तत्र संज्ञासूत्रेषु कश्चन अस्ति, तत्र किं शैली काचन अस्ति, तत्र स्मर्यते वा केनापि कयापि वा?
संज्ञासूत्रं प्रथमाध्याये भवति, अत्र उपदेशे इति वार्ता अस्ति, अनुनासिक त्रयाणां त्रीणि वार्तानि सन्ति अत्र. गतवर्गे महोदय नूतनसंज्ञा हो सङ्की इति नूतनपदम् उपदेशे अचना अनुनासिकः इति सङ्की.
अत्र सूत्रे महोदय अन्यविभक्तयः नास्ति, अत्र अनुनासिक अपि प्रथमाविभक्ति एव, इत् इपि अपि प्रथमाविभक्ति एव, अतः आम् अभक्त, किन्तु उपदेशे अत्र महेश्वराणि सूत्राणि इस् नाट् अप्लैड् रैट्, सो उपदेशे इति साधारणरीत्या एव सप्तमी विभक्ति अत्र भवति, अनन्तरम् इत् इति अपि प्रथमाविभक्ति अतः एव संज्ञासूत्रम् इति मन्ये.
सम्यक् सम्यक् तथा सर्वं समीचीनम् उक्तं, परन्तु अन्यत् किमपि मया उक्तम् इदानीं पुनरेकवारं वदामि. तत्र बहुलतया नाम सर्वदा इति न, परन्तु तत्र प्रायिकः अस्ति कश्चन नियामः अष्टाध्यायम्. इदानीं संज्ञासूत्र अस्ति चेत् संज्ञासूत्रम् अस्ति चेत् तत्र सर्वदा अन्तिमं पदं यत् तत् संज्ञा एव, यथा उपदेशाचिन्नासिक इत् इति अत्र इत् अन्तिमं पदं यत् वर्तते तदेव संज्ञा अस्ति. यत् इतः प्राक् अस्ति तत् सर्वं संज्ञी, नाम तत् संज्ञायाः यः विषयः यः अर्थः सः सामान्यतः तथा विद्यते. तत्र सन्ति केचन अपवादाः अस्माभिः, इति अपवादाः अपि अग्रे सर्वे द्रक्ष्यन्ते, परन्तु सामान्यतः तत्र किं भवति परन्तु अदेङ्गुणः इति तत्र द्वितीयं सूत्रमस्ति. अत्र अनेके तादृश अदर्शनं लोपः यत्किमपि तत्र अनेकानि उदाहरणानि तादृशानि एव, अनेकानि नाम प्रायः सर्वाणि, परन्तु तत्र सन्ति एव द्वित्राः केचन अपवादाः. अतः एव तथा एव ज्ञातुं शक्यते. इदानीम् इत् इति अन्तिमं पदम् अस्ति, अत एव तदेव संज्ञां प्रतिपादयति इति.
एकः प्रश्नः अस्ति महोदय, अन्तिमपदं प्रथमाविभक्त्याम् अस्ति चेत् तत् संज्ञा सूचयति इति ऊहं कर्तुं शक्नोति वा?
तदेव ऊहं कर्तुं शक्नुमः, परन्तु तत्र ऊहा सर्वदा न करणीया. परन्तु इदानीं ज्ञायते चेत्, इदानीम् अहं वदामि इति चेत् अथवा कुत्रचित् व्याख्यानि दृश्यते चेत् इदं सूत्रं संज्ञासूत्रम् इति, तर्हि तत्र किं चान्स् अस्ति यत् अन्तिमं पदं संज्ञाम् एव बोधयति. इदानीं तथा तत्र अवश्यं नास्ति, परन्तु सा प्रायिकं प्रायिकः अयं नियामः अस्ति एव.
धन्यवादः महोदय.
अपि च तदेव, परन्तु यत् उक्तं भवद्भिः तत् तत् तदेव तदेव अपि अत्र आवश्यकमस्ति. नाम ग्रहणं क्रियते इति चेत् तर्हि सर्वदा प्रथमया एव क्रियते, कुत्रचित् नामकरणं द्वितीयया वा तृतीयया न क्रियते. अत एव प्रथमा इति एकं, प्रथमान्तं पदम् इति एकम्, अपि च अन्तिमं पदम् इति द्वितीयम्, अपि च संज्ञासूत्रं ज्ञायते इति चेत् यदि इदानीं त्रीणि तत्र ज्ञानानि अस्माभिः प्राप्तानि तर्हि सामान्यतः तथा वक्तुं शक्यते. भवतु, तर्हि अग्रे गच्छामः. इदानीं हलन्त्यम् इति अरविन्दमहोदय.
आम् महोदय,
उच्यतां.
हलन्त्यम् उपदेशस्य उपदेशस्य अन्ते हल् वर्ण अस्ति चेत् तस्य हल् वर्णस्य इत् संज्ञा भवति. उपदेशे अन्त्यं हल् इति इत् तस्य संज्ञा इति पूर्णं सूत्रम्.
सम्यक्. तर्हि इत् इदानीं भवता उक्तम्, इत् कुतः आगच्छति, कथं ज्ञायते तत्र इत् अपि शब्दः अस्ति?
औपदेशे अन्तिमवर्णः.
सम्यक्. इदानीं न तत्र इदानीं सम्पूर्णं सूत्रं भवता उक्तम्, उपदेशे अन्त्यं हल् इत् इत् शब्दः तु उपदेशे शब्दश्च तत्र सूत्रे न स्तः, परन्तु भवता उक्ते इमे पदे, तत्तु समीचीनमेव. इदानीं परन्तु कस्मात् अनीते एते पदे?
पुनरेकवारम्.
इदानीं सूत्रं तु वदति हलन्त्यम् एव.
सम्यक्.
परन्तु इदानीं तत्र प्रतिपादनसमये भवता उपदेशे अपि च हल् इति सर्वम् अनीतं, तत्तु सम्यक् एव. इदानीम् इदम् अनयनम् इति कस्मात् जातम्, अपि च तस्य नाम किम्? इदानीं तत्र
अनुवृत्तिरूपेण अनुवृत्तिरूपेण उपदेशे इत् द्वयोः अनुवृत्तिं कृत्वा अन्तिम हल् अस्य सूत्रस्य संयुक्तेन उपदेशे अन्त्यं भाग इति पूर्णं सूत्रं
सम्यक् समीचीनं महोदय इदानीम् एतत् सूत्रं किं सूत्रं किम् उच्यते
हलन्त्यं
तत्र विधिसूत्रं वा नियामसूत्रं वा
संज्ञासूत्रं
संज्ञासूत्रमेव
इतपि अपि संज्ञासूत्रमेव
सम्यक् समीचीनं महोदय तत्र किञ्चन उदाहरणं स्मर्यते वा अथवा भू भू भूवादिगणः स्मर्यते वा भूवादिगणः महोदय
भूवादिगणे
भूवादिगणे विकारणप्रत्ययः कः
शप्
शप् तत्र पकारः
अकारः विकरणप्रत्ययः श श एवं
गच्छतः इदानीं पकारः यः सः केन सूत्रेण इत्संज्ञां प्राप्नोति
हलन्त्यम् इति सूत्रेण
सम्यक् तदेव समीचीनं महोदय तदेव अथवा अपि च शङ् वा आसीत् तत्रापि निच् अपि आसीत् तत्र सर्वदा अन्ते विद्यमानाः वर्णाः अनेन सूत्रेण एव इत्संज्ञां प्राप्नुवन्ति सम्यक् तर्हि किं भवानेव न विभक्तौ तु स्मः इति तत्र इदं सूत्रं कृपया प्रतिपादयन्तु
न विभक्तौ तु स्मः इति एक बाधक इति एकं बाधकसूत्रं हलन्त्यस्य हलन्त्यं यत्र हलन्त्यं अन्तिमपदं तु सवर्गीय सकारः मकारः इति विभक्तेः वर्तते तत् तस्य इत् संज्ञा न भवति
सम्यक् समीचीनं विभक्तिः नाम किं
विभक्ति सुप्तिङ्गन्तं तिङ्गन्तं विभक्ति
सुप् वा तिङ् वा
तिङ् तिङ्
सुं प्रत्यय इदानीं विभक्ति अन्तं वदामिति चेत्
विभक्ति अन्तं सुप्रत्यय सुप्रत्यय
सुप् च तिन् सम्यक् सुपः च तिनः च तत्रापि सूत्रं दत्तं विभक्तिश्च इत्यनेन इदानीं एतत् सूत्रं मास्तु तत्र अग्रे पश्यामः कदाचित् सम्यक् इदानीं तदेव उक्तं भवता अत्र इदं सूत्रम् अग्रिमं सूत्रं नियन्त्रयति तत्र बाधक तस्य बाधकः भवति चेत् तर्हि तस्य सूत्रस्य नाम किम् इदानीं परिभाषिकं नाम किं
नियमसूत्रं
नियमसूत्रं
समीचीनं नियमसूत्रं तर्हि उदाहरणं ज्ञायते वा किञ्चन
राम योगजस् तत्र सकार हलन्त्यं सकार न लोपो भवति
सम्यक् सम्यक् महोदय तथा एव इदानीं किं किं कुर्मः तत्र द्वितीयगानः अदादिगणः वा स्मर्यते भवता तत्र विकारणप्रत्ययः कः
विकरणप्रत्ययः नास्ति
नास्ति सम्यक् इदानीम् एकं धातुं स्वीकुर्मः नु धातुः इदानीं पूजने नु किं नौचि नुवन्ति स्तुवन्ति अथवा स्तु धातुः स्तोत्रम् इति पदं ज्ञायते वा स्तोत्रम् इति स्तु धातोः निर्मितं पदम् इदानीं स्तौचि स्तुचिः वा इदानीं द्वितीय किं भवति द्विवचने प्रथमपुरुषे तिङ् प्रत्ययः तस् इति भवति तकारः अकारः सकारः इदानीं तत्र तत्रापि अयं स्थितिः इदानीं हलन्त्यम् इत्यनेन सकारः इत् संज्ञाः संज्ञा स्यात् संज्ञात् प्राप्नुयात् परन्तु नैव कर्तुं स्मः इत्यनेन न प्राप्नोति अत एव नु योगः तस् अथवा यु नोगः योगः तः नुतः अथवा स्तुतः इति तत्र द्वितीयगणे एतादृशानि रूपाणि निर्मीयन्ते परन्तु सम्यक् तत्र तु उदाहरणं जस् इति एवं दत्तं परन्तु जस् तु सुप् सुप् सम्बन्धि अतः एव सुपाम् अस्माकम् इदानीं नास्ति एषः हा सम्यक् महोदय धन्यवादः तर्हि श्रीराम् महोदय
आं महोदय
कृपया अग्रे पततु
आदिर्निटुडवः उपदेशस्य आदौ इति त्रिषु एकः वर्णसमूहः अस्ति चेत् तस्य इत्संज्ञा भवति एते निबन्धाः धातुषु एव भवन्ति अतः इदम् इदं सूत्रं वस्तुतः धातूनां कृते तेषाम् इतरेश्वरद्वन्द्वः निटुडु बहुवचने निटुडवः गुरुशब्दः इव आदिः प्रथमान्तं निटुडवः प्रथमान्तं त्रिपदम् इदं सूत्रम् आदिः इति इत् इति च बहुत्वे एकवचनम् अनुवृत्तिसहितसूत्रम् उपदेशे धातौ उपदेशे धातोः आदयः निटुडवः इतः इति टुनग्दीम् इति धातुः आदिर्निटुडवः इत्यनेन टु इति वर्णसमूहस्य इत्संज्ञा तदा यस्य लोपः इत्यनेन लोपः नदीम् उपदेशे अजनुनासिक इत् इत्यनेन इगुङ्कारस्य इत्संज्ञा नद् नन्द् इति लौकिकधातुः अत्र नुमागमः भवति इति अग्रे पठिष्यामः अत्र महोदय सूत्रमस्ति आदिर्निटुडवः इति अत्र यत्र धातोः आदौ निटुडवः इति वर्णसमूहः अस्ति वर्णसमूहात् कश्चन वर्णमस्ति तदपि इत्संज्ञा सूचयति अत्र निटुडवः इति इतरेत्वरद्वन्द्वः निटुडु इति एव एकवचनं निटुडवः इति बहुवचने अत्र निहि अनन्तरं टु अनन्तरं डु इति वर्णाः अस्ति चेत् ते अपि इत्संज्ञा सूचयति आदौ यत्र धातोः आदे आदौ नि टु ड डु इति अस्ति ते इत्संज्ञा सूचयति इति सूत्रं वदति अत्र अनुवृत्तिसहितसूत्रम् उपदेशे धातोः आदयः निटुडवः इतः इति अत्र उपदेशे अजनुनासिक इत् इति सूत्र सूत्रतः उपदेशे अनन्तरम् इतः इति पदं स्वीकृत्य अनुवृत्तिसहितसूत्रस्य पूर्णं भवति, सूत्रं पूर्णं भवति. अनन्तरम् अत्र उदाहरणमपि दत्तं, यत्र टु नदीम् इति सूत्रम् इति धातुः अस्ति. टु इति आदिर् निट्टु डवः इति सूत्रात् अत्र टु इति वर्णस्य इत्संज्ञा इत्संज्ञा भवति. अतः एव नदीम् इति भवति. अनन्तरं तस्य लोपः इत्यपि सूत्रम् अस्ति. तस्य सूत्रात् टु इति इत्संज्ञा सूचकस्य लोपं भव लोपः भवति. अनन्तरम् उपदेशे अजनुनासिक इति सूत्र सूत्रमस्ति, प्रथमसूत्रम्. अतः नदीम् इति धातुः अस्ति, टु नदीम् इति. अत्र चन्द्रबिन्दु अस्ति, अनुनासिक अस्ति इति कारणेन नद् इ इति इत्संज्ञा प्राप्नोति. अतः टु इति वर्णस्य लोपः भवति, अनन्तरम् इ इति स्वरस्य लोपः भवति, अनन्तरं नद् इत्येव शेषः भवति. धातुः लौकिकधातुः अस्ति.
सम्यक्, समीचीनं महोदय, अत्यन्तं समीचीनं.
अत्र तेषाम् इतरेतद्वन्द्वः किमर्थम्?
इतरेतरद्वन्द्वः भवतु नाम तत्र इतरेतरद्वन्द्वः कः जानाति? इदानीं द्वन्द्वः किं जानाति वा भगिनि? समासः कीदृशः समासः? जानाति कोपि? इदानीं तत्र तत्र सूत्रमस्ति, अपि सरलसूत्रमस्ति, चार्थे द्वन्द्वः. इदानीं यदि चार्थे केचन शब्दाः अस्माभिः समस्यन्ते तर्हि तत्र तत्र निर्मितः सम्बन्धः क्षम्यतां निर्मितः समासः द्वन्द्वः इति उच्यते. इदानीं रामः च, रामश्च, लक्ष्मणश्च, रामलक्ष्मण इति तत्र समासः जातः. इदानीं प्रतिपादिकम् अस्ति रामलक्ष्मण. इदानीं प्रश्नः उदेति, इदानीं इयं पदं यदा प्रयुज्यते, कस्मिन् वचने प्रयुज्यते, अपि च कस्मिन् लिङ्गे प्रयुज्यते, तत्र तां विषयाम् अधिकृत्य द्वन्द्वसमासयोः द्विधा भेदः वर्तते. एकः प्रभेदः अस्ति इतरेतरद्वन्द्वः इति उच्यते. इतरेतरद्वन्द्वः इति सामान्यद्वन्द्वः, यत् सर्वैः ज्ञायते द्वन्द्वः, सः एव इतरेतरद्वन्द्वः. नाम इतर अन्यः अन्यः, तत्र रामश्व रामः वा, रामः च, किं लक्ष्मणः वा, सीता लक्ष्मणश्च, सीता च इति समासे कृते रामलक्ष्मणसीताः इति समासः द्वन्द्वसमासः भवति. तर्हि तत्र तस्मिन् समासे इदानीम् अवयवानां सङ्ख्या या, सा सङ्ख्या अपि समासस्य सङ्ख्या भवति. अत एव रामलक्ष्मण इति समासं कृत्वा तत्र अवयवौ द्वौ एव, तर्हि द्विवचने सर्वदा प्रयुज्यते. अथवा सीता च, रामः च, लक्ष्मणश्च इति समासे कृते तत्र त्रीणि त्रयः अवयवाः, त्रीणि अवयवानि वा सन्ति, अथवा त्रीणि अङ्गानि सन्ति, त्रीणि पदानि समास्य तत्र समास्तानि सन्ति, अत एव समासस्यापि बहुवचनं भवति. इदानीं सीतारामलक्ष्मणाः इति बहुवचने सर्वदा इदम् अयं समासः प्रयुज्यते. अपि च अन्तिमस्य पदस्य लिङ्गं यत् अत्र लक्ष्मणः इति कुर्वन्तु, लक्ष्मणः किं पुंलिङ्गकं पदम्, अत एव पुंलिङ्गिपदम् इति चेत् तर्हि समासस्यापि पुंलिङ्गः एव पुंलिङ्गम् एव क्रियते. तर्हि रामलक्ष्मणाः किं तत्र सीतारामलक्ष्मणाः, परन्तु अन्ते अन्यत् किमपि स्यात्, सीता यदि स्यात् रामसीता इति तादृशः समासः क्रियते इति चेत् तर्हि तस्य इदानीं सीतारामौ द्विवचने स्यात्, यतोहि रामः पुंलिङ्गे वर्तते, परन्तु रामसीते इति समासः स्यात्, नाम द्विवचने तत्र रूपभेदः स्यात्, यतोहि सीता स्त्रीलिङ्गे वर्तते. परन्तु इदानीं तु तत्तु सर्वम् अस्ति. इदानीम् एतत् इतरेतरद्वन्द्वः. अन्यः कश्चन प्रभेदः वर्तते, नाम समाहारद्वन्द्वः. इदानीं यत्र द्वन्द्वेन समाहारः कश्चन समूहः सूच्यते, यदि तत्र पाणि पाणिः नाम पाणिः हेन्स् पदं च, अथवा पाणि पदे च, तर्हि तत्रापि समासः द्वन्द्वसमासः भवति पाणिपड. परन्तु इदानीम् अयं समासः यदि पाणिपदानां समूहं समाहारं सूचयति, तर्हि इदं पदं किम् एकवचने अपि च नपुंसके सर्वदा प्रयुज्यते. तर्हि पाणिपदम् इति भवति समासः, तदपि द्वन्द्वसमासः, यतोपि तथापि चार्तः प्रयोजकः समासस्य. परन्तु तत्र किं कश्चन तत्र अर्थस्य लेशः अधिकः अस्ति, नाम पाणिपदानां समूहः, पाणिपदानां समाहारः. इदानीं तत्र के तत्र कानिचन सूत्राणि सन्ति, सर्वदा तथा एव न कर्तव्यं. तत्र सूत्राणि सन्ति, नियामकसूत्राणि सन्ति, केषुचित् अर्थेषु तदेव प्रयुज्यते. इदानीं यस्य विरोधः तत्र येषां विरोधः नित्यमस्ति, तेषाम् अपि अयं समाहारः द्वन्द्वः प्रयुज्यते. अपि च तत्र सन्ति कानिचन सूत्राणि. अपि च एकं शरीरं यदि शरीरावयवानि शरीराङ्गानि समस्यन्ते, यथा मया उक्तं पादे पाणी च, तर्हि इदं समासः अयं समासः अपि समाहारद्वन्द्वः भवति इति. सम्यक् वा? स्पष्टं वा? तर्हि इतरेतरद्वन्द्वः यः तत्र सामान्यः द्वन्द्वः इति तथा चिन्तयन्तु. भवतु, परन्तु तदनन्तरं सर्वं सम्यक् इति मन्ये. इदानीं सर्वं समीचीनमेव उक्तम्. इदानीं नीतु डु इति तत्र वर्णसमूहः त्रयः सन्ति. तत्र एते आदौ सन्ति चेत् तर्हि एते अपि इत्संज्ञां प्राप्नुवन्ति. तथापि उक्तं सामान्यतः सूत्रे किमपि नोक्तं, परन्तु वस्तुस्थितिः ईदृशी. नीटु डु इति इमे वर्णसमूहाः सर्वदा धातु आदौ धातूनाम् आदौ एव विद्यन्ते. कुत्रचित् प्रत्ययेषु आगमेषु वा कुत्रचित् न विद्यन्ते. अत एव वस्तुतः नीटु डु इति अथवा आदिर्नीतुडवः इति इदं सूत्रं केवलं धातुं अथवा धातून् प्रति तत्र कार्यं करोति. कुत्रचित् अन्यत्र तादृशी स्थितिः नास्ति. अपि च तत्र उदाहरणं दत्तं, नन्दति वा नन्दते वा, यत् यः धातुः नन्दि तु नन्दि न प्रस्मयपदी अस्ति इति मन्ये. तर्हि नन्दति इति तुष्यति तत्र किं तुष्यति इति अर्थे नन्दति इति धातुः अस्ति. तत्र तस्य औपदेशिकं रूपमस्ति तुनडिङ् तुनदी तुनदि तथा भवति तत्र इ अन्तिमः स्वरः यः स उपदेशाचनस्य इत् इति अनेन इत् संज्ञां प्राप्नोति परन्तु टु टु यः तत्र भागः अस्ति सः भागः अनेन सूत्रेण एव आदिर्णितुदः इति अनेन सूत्रेण इत् संज्ञां प्राप्नोति तदनन्तरं तस्य लोपः इति अनेन गच्छति अपि च नन् तत्र नकारः आगच्छति तत् अचिरात् एव अत्र एव द्रक्ष्यामः सम्यक् वा तर्हि कः सेतुरां महोदय अस्ति वा
सेतुराम् अस्ति महोदय
तर्हि कृपया तत्र इराङ्ग् इति ईर् ईरा इति अत्र आरभ्य कृपया
महोदय
तत्र मया इदानीं म्यूट् कृतं राजशेखर वा राजशेखरन् एस् कः
राजशेखरन् महोदय
भवतः गृहे कश्चन ध्वनिः अस्ति इति मन्ये तर्हि कृपया ध्वनिः गृहे न परन्तु तत्र इण्टर्नेट् मध्ये कश्चन ध्वनिः आगच्छति कृपया तत्र म्यूट् करोतु सीतारां महोदय कृपया
इति सूत्रस्य अन्तर्गतम् एकं वाक्यम् धातोः इत्यस्य शब्दसमुदायस्य इत् संज्ञा भवति इत्यादिषु धातुषु इरः इत्संज्ञा भवति भवति भिद् छिनिर्भवति छेद् दशिर् भवति दृश् निजिर्ति निच् निजिर्युच् ईशुचिर्चित् ध्येयं यत् ईकारस्य रेफस्य च भिन्नरीत्या इत्युज्ञा न करणीया अत्र कुत्र आगच्छति तस्य इत् संज्ञा भवति इति सूत्रं नेटि किमर्थं
तत्तु वस्तुतः एतत् ईरः इत् संज्ञा वाच्य इति सूत्रम् इति न तत्तु वार्तिकं किञ्चन वार्तिकं किं जानाति वा भवान् तथा सम्यक् तदेव वार्तिकमिति किञ्चन वस्तुतः अपि कश्चन ग्रन्थः अस्ति तत्र वार्तिकानि भवतु तत्तु अग्रे वदामि इदानीं तु तावदेव ज्ञेतव्यं ज्ञेयम् इदं सूत्रम् इति न परन्तु किञ्चन तत्र व्याख्यानम् इव विद्यमानः ग्रन्थः दृश्यते अपि च एतद् वाक्यम् ईरः इति संज्ञा वाच्य इति नेचि इति अस्मिन् सूत्रे एव उक्तम् एतद् वाक्यम् एतद् वार्तिकम् अत एव परन्तु तत्र इदानीं नेचि इति अस्य सूत्रस्य कः सम्बन्धः अपि च तस्य अर्थः कः तत् सर्वं मास्तु इदानीं केवलं तदेव ज्ञातव्यम् एतद् वार्तिकम् एतत् व्याख्यानवाक्यं तत्र अस्मिन् सूत्रे 724 इति नेटि इति सूत्रे तत्र उक्तम् इति
अत्र धातोः अन्ते अस्ति तस्य लोपः भवति इत्संज्ञा भवति अतः अस्मिन् सूत्रः
तर्हि तत्र उदाहरणानि दत्तानि तदनन्तरं तत्र अन्तिमं वाक्यं वर्तते
त्रीणि यत् ईकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया.
तत्तु किं वदति भोः? नाम भिन्नरीत्या, नाम अन्यथा, अन्येन केनचित् प्रकारेण. इदानीम् एतत् वार्तिकम् अत्र न स्यात्. तत्र पश्यतु भवान्, तत्र भिदिर् भिदिर् इति वर्तते. इदानीं भिद् इति लौकिकं रूपं, भिदिर् इति औपदेशिकं रूपम्. इदानीम् एतत् वार्तिकं न स्यात् इति चेत् तर्हि किं, कथमपि अपि इकारं रेपं च तत्र इत्स् इत्स् इत् नामकरणं कर्तुं शक्यते वा तेषां तयोः?
इति अस्य संज्ञा भवति.
इदानीं भोः चिन्तयतु, इदं वार्तिकं नास्ति. वस्तुतः इदं वार्तिकं पाणिनिनापि नोक्तं. तत्तु के अन्यात् किमपि. इदानीम् एतद् वार्तिकं नास्ति इति चेत् तर्हि भिदिर् इति अस्मात् भिद् इति प्राप्तुं शक्यते वा? न न,
चिन्तयतु,
हलन्त्यम् इति अनेन किं भवति? रेफस्य रेफस्य इत्संज्ञा, अपि च
अखिल
सम्यक्, तदेव तदेव उक्तं. वस्तुतः नाम यदि तथा एव चिन्तयामः इति चेत् तर्हि वस्तुतः एतद् वार्तिकं नापेक्षितम् इति तथा दृश्यते, यतोहि इकारः तत्र अनुनासिकः.
एकः संशयः, कथं अस्य इति अहं न जानामि. बिकास् हियर् इट् इस् विधिर् विधिर् रकारः अन्ते अस्ति. हलन्तिरम् अलोन् केन् फङ्क्षन् हियर् नाट् उपदेशे अनुनासिकः.
समीचीनं भगिनि, रकारस्य तथा रेफस्य हलाञ्च्यम् इति विषयः. परन्तु अनुनासिक तत्र रकारस्य रेफस्य प्राक् किं वर्तते?
That rule is not there for ananasikait.
Pardon?
Samyak, idam bahini, tatra bhatam bhatya, tatra kashna idam, tatra sutra yoho melanam kriyate iti mani. Idam halanchyam iti anena sutrena, antimam hal, antimam vyanjanam eva gachati, iti samyak. Parantu upadeshe ach ananasikaha it, iti anena sutrena, तत्र अञ्चः इत् कुत्रापि नोक्तं, तत्र क्षम्यताम्, अञ्चिकः अच् इति कुत्रापि नोक्तं. केवलम् अच् अनुनासिकः अच् अस्ति चेत् गच्छति इति तावदेव उच्यते. कुत्र न तथा न, तत्र तत्रापि अनेके तथा भवति. तत्र इदानीं शप् इति स्वीकरोतु, विकारणप्रत्ययः शप् इति उक्तः. इदानीं पकारः हलाञ्चम् इति अनेन गच्छति, शकारः इति अपि केनचित् सूत्रेण अग्रे तत्र वक्ष्यमानेन सूत्रेण अपि
प्रत्यये शकारः प्रथमे पूर्व अस्ति, पकारः अन्ते अस्ति. इन् बिट्वीन् देर् इस् अलोन् जायिन्स्.
तत्र भवतु नाम तथा एव चिन्तनं कर्तव्यं, नाम कर्तव्यं तत्र कर्तुं शक्यते. परन्तु तत्तु तत्र वास्तवं नास्ति, तत्र तादृशं कुत्रापि नोक्तं पाणिनिना. अपि च अनेके अनेकानि उदाहरणानि सन्ति यत्र तत्र किं तत्रापि भवति कुत्र नान्दी इति आसीत् तत्र अन्ते नासीत् किञ्चित् न तत्र नासीत् परन्तु अस्ति सन्ति एव तादृशानि उदाहरणानि यथा तु नदीङ् इति तत्र अस्माभिः तत्र इङ्कारः केवलम् अन्ते अस्ति परन्तु इदानीं तथा दुपचांश् दुपचांश् इति सम्यक् पचति धातुः यः तस्य तस्य औपदेशिकं रूपम् अस्ति डु
पच्
पच्कारः तदेव तस्य अस्ति रूपं तत्रापि डु इति नीतुड आदिर्नीतुडवः इति अनेन आ इति हलाञ्चम् इति अनेन गच्छति आ इति न क्षम्यतां ष हलाञ्चम् इति अनेन आ इति उपदेशचिन्नस्ति इति अनेन गच्छति.
महोदय अत्र शब्दसमुदायः सूत्रस्य अर्थः अस्ति समुदायस्य इत्संज्ञा भवति
एवं वस्तुतः तदेव तत्र वक्तुं प्रवृत्तः किं स्वरूपं तत्र अस्माकं करपत्रे तदेव उक्तम् इदानीं किमर्थम् एतत् इदानीं नोच्यते तत् अग्रे पश्यामः तत्र परन्तु तत्र अस्ति किञ्चन प्रयोजनं यतोहि ईर् इति तत्र वर्णसमुदायेन एव स्वीकर्तव्यः इति तावदेव वदति यतोहि इदानीं यदि केवलम् अनुबन्धानां निष्कासः इति यदि केवलं तादेव पश्यामः निष्कासनं पश्यामः एव इति चेत् तर्हि अस्य वर्तिकस्य नास्ति प्रयोजनं यतोहि ईकारः अनुनासिकः अत एव गच्छति रकारः अपि रेपः अपि अन्त्यमस्ति हल् अन्त्यम् अन्ते विद्यमानः हल् अस्ति अत एव अपि सः अपि गच्छति परन्तु तत्र अस्ति किमपि अन्यत् प्रयोजनम् अत एव तदेव चिन्तनीयं तदेव मनसि तत्र अस्माभिः धरणीयं यत् ईर् इति वर्णसमुदायः एव वर्तते सोऽयं वर्णसमुदायः वर्णसमुदायेन एव इत्संज्ञां प्राप्नोति न तु प्रतिवर्णं
महोदय इत् वर्णसमुदायस्य अन्य नाम आत्मीयसंज्ञा अस्ति टि
टि
अन्त्यस्य टि
सम्यक् 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 समीचीनं तदपि
महोदय मम
अन्ते अन्ते विद्यते चेत्
मम एकः प्रश्नः अस्ति अत्र इर् इति अस्ति इर् इति हलन्त्यम् इति सूत्रेण इत्संज्ञा प्राप्नोति ई अनुनासिकस्वरः इति कारणेन तदपि इत्संज्ञा प्राप्नोति किन्तु इर् इर इति वर्णसमूहः अस्ति अतः एकमेव इत्संज्ञा अस्ति अत्र न तु इत्संज्ञाद्वयं सम्यक् वा
सम्यक् अपि च इदानीं तत्र लागु किञ्चित् वदामि तथापि इदानीम् अवगन्तुं शक्यते इदानीम् उपरि उदाहरणमस्ति नदीं वा अथवा तु नदीं दृश्यते वा सर्वैः आदिर्नीतूडवः अत्र तत्र अनुनासिक इकारः अस्ति इदानीम् अयम् अनुनासिकः इकारः अस्ति इति अनेन तत्र किमपि सूत्रमस्ति उजितो नुम् धातोः इति अनेन सूत्रेण तत्र नुम् आगमः भवति अनेन नन्द् तत्र दृश्यं रूपम् अस्माभिः प्राप्यते इदानीं तत्र इदानीं प्रभावः स्वभावः कः इदानीं तत्र सूत्रम् इदानीं विहाय केवलं तथा वदामि इदानीम् अनुनासिक इकारः अथवा इत् इ तत्र किं भवति किं कदा वदामः भवतु नाम तत्र उदित भवतु नाम इदानीम् इ इकारः अनुनासिक इकारः यदि कस्यापि धातोः इत्संज्ञां प्राप्नोति, इदानीम् अनुनासिकैकारः भवति चेत् तर्हि तत्र अवश्यम् इत्संज्ञां प्राप्नोति. इदानीं तादृश इकारः तत्र नुम् आगमं प्रयोजयति, तर्हि तत्र नन्द् इति रूपं निष्पद्यते. परन्तु अत्र इदानीं पश्यतु, दृष्व छिद्व भिद्व, तत्र तादृशः अथवा शुच् शुच् इति तत्र पश्यतु, तत्र तादृशप्रभावः नास्ति तत्र. अत एव यथा इकारः स्वयम् इत्संज्ञां न प्राप्नोति, तथा एव किञ्चित् तत्र किञ्चित् विशिष्टं वार्तिकं, किञ्चित् विशिष्टं वाक्यं तत्र कर्तव्यं, यतोहि अन्यथा तत्र आपत्तिः कश्चन स्यात्. तत्र दृश् अपि दृङ्श् स्यात्, अपि च युच् युञ्च् इत्यादिकं, शुच् शुञ्च् तत्तु अत्यन्तं नेष्टम्. अत एव तत्र किञ्चन वार्तिकं, किञ्चन तत्र किं भवति, किञ्चन अध्याहारः, कश्चन अध्याहारः, कश्चन अडिशनल् रू तत्र क्रियते. सम्यक् वा?
सम्यक् महोदय, धन्यवादः.
परन्तु ईरः इति स्वयमेव तस्य किञ्चन प्रयोजनम् अस्ति, तत्तु मास्तु. परन्तु अत्र एव तत्र एतं तुनदिङ् इति उदाहरणं स्वीकृत्य तत्तु सम्यक् द्रष्टुं शक्यते.
महोदयः, एकः प्रश्नः अस्ति. यदि इर् शब्दसमूहस्य इत्संज्ञा भवति, तदनन्तरं नुमागमः न भवति,
तदनन्तरं नुमागमः न भवति एवं,
किन्तु यदि इ अनुनासिक इकारस्य इत्संज्ञा भवति, तदनन्तरं नुगामः भवति
एवं.
धन्यवादः.
एवम्, अत एव इदानीम् एतद् वार्तिकं न स्यात् इति चेत्, तर्हि यद्यापि इकारं रकारम् अपि अपहर्तुं शक्यते, परन्तु तत्र अनिष्टः अनिष्टं किञ्चन कार्यम् उत्पद्येत, तत्तु मास्तु इति. परन्तु यथा उक्तं, वस्तुतः ईर् ईर् इत्यस्य अस्य किम् इतः अन्यत् अस्ति किञ्चन प्रयोजनं, परन्तु तत्तु अग्रे सर्वं दृश्यते. भवतु सम्यक्. वार्तिकं वार्तिकं नाम किं, तत्र बहु वस्तुतः किमपि
प्रकारे लास्ट् लैन् गिवन् इकारस्य रेफस्य च भिन्नरीत्या इत् संज्ञा न करणीया, करपत्रे अस्ति
किं किं
सेम् पेराग्राफ् एण्ड् आफ् द लैन् इकारस्य रेफस्य च भिन्नरीत्या इत् संज्ञा न करणीया.
तथा किं तेन किं
वार्तिकं नाट् सेपरेट्लि हलन्तियम् उपदेशे केनाट् बि डन्.
एवम् एवं, तदेव वदामि इदानीं. तस्य वाक्यस्य इदानीं मया अर्थः उक्तः. इदानीं किमर्थं न करणीयं, यतोहि तत्र अनिष्टं रूपं जायते इति. साधु वा भगिनि? भवतु, तर्हि भगिनी एव तत्र अग्रे पततु. त्रीणि सूत्राणि शः प्रत्ययस्य इति एतत् सूत्रं पततु.
शः प्रत्ययस्य 36 प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य इत् संज्ञा भवति. शः प्रथमान्तं प्रत्ययस्य षष्ट्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदिः शः इत् सेल्प् इति औपदेशिकधातुः. शाकन् प्रत्ययः उपदेशे अजनुनासिक इत् हलन्त्यं शः प्रत्ययस्य इति सूत्रैः इत् संज्ञा तदा तस्य लोपः इत्यनेन लोपः जल्प् आक जल्पाक इति प्रातिपदिकम् जल्पाक यः बहु वदति इत्यर्थः. ओके, यत्र शः धातोः पूर्वे अस्ति सः तत् सः शकारः इति संज्ञा भवति.
उपदेशे
प्रत्ययस्य प्रत्ययस्य आदिः शः अस्ति चेत् सः लोपः भवति. सो तस्य लोपः इति सूत्रेण तस्य लोपः सम्भवति.
सम्यक्. तर्हि उदाहरणं तत्र
उदाहरणं औपदेशिकधातु जल्प् इति औपदेशिकधातु शाकन् प्रत्ययः प्रत्ययः शाकन् इट् इस् इट्स् एडेड् सो दट् शः प्रत्ययः प्रत्ययः सूत्रैः इत् संज्ञा सो दट् इट् इट् बिकम्स् आकार because halantiyam in also drops sha in later so aka so jalpa plus aka jalpaka
apika a jalpa iti tatrapi kim
asya upadesha anunasika because of that the akara of pa gets dropped
samyak tarhi tatra a shakan iti kashna tachilya iti bato samyak kashna krit pratyah asti aka jalpakah nama bahu bahu jalpati bahu vadati iti yaha samyak tattu samichinam idanim shakarah tadeva idanim gnyeyam pratyayasya adau vidyamanah shakarah sahapi iti sanyam parantu pratyayasya adau eva natu dhatoho धातोः तु अपि अदौ बहुधा शकारः विद्यते सः तु तत्र अस्य सूत्रस्य न विषयः भवति. समीचीनं
महोदय.
उचितं.
जल्प इति भुवादिगणे अस्ति.
जल्प इति भुवादिगणे अस्ति इति भुवादिगणे अस्ति इति मन्ये, परन्तु पश्यामि. ज ज ज ज जल् भवादिगणे व्यक्तायं वाचि अव्यक्तायं वचि तु एवं भवादिगणे.
थेङ्क् यु.
तर्हि वेदा भगिनी चुटु इति.
हा महोदय. चुटु 1.3.7 प्रत्ययस्य आदौ च वर्गीयः आल् द च च ज ज ञ अथवा च वर्गीयः ठ ठ ढ ढ ण वर्णः भवति चेत् तस्य वर्णस्य इत्संज्ञा भवति. चुश्च दुश्च तयोः इतरेतरद्वन्द्वः चुटु द्विवचने गुरुशब्दः इति अत एव चुटु इति उच्यते. चुटु प्रथमान्तम् एकपदमिदं सूत्रं वचनविपरिणामं क्रियते अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि चुटु इतौ इतौ चुटु इति संज्ञा सूत्रमस्ति. एते सूत्रे प्रत्ययस्य आदौ यदि चवर्गीयवर्णाः अथवा टवर्गीयवर्णाः अपि चेत् ते वर्णाः वर्णानि इतसंज्ञा भवति. एक चुश्च दुश्च ततोः इतरेतरद्वन्द्वः चुटु दट् इस् एन् एक्स्प्लेनेशन् फार् चुटु चुटु वाट् चुटु इस् द्वितीय इतरेतरद्वन्द्वः अत एव चुटु इस् प्रथमान्तं प्रथमान्तम् अदेव नामकरणम् इत् संज्ञा प्राप्नोति. वचनविपरिणामं भवति वचनविपरिणामं
तत्र इदानीं सूत्रेषु अन्यदा इदानीम् अनुवृत्तिः कः उपदेशे इत् च इदानीं तथा अनुवृत्तिं करोमः इति चेत् किं भवति उपदेशे प्रत्ययस्य आदिः चुटु इत् इति तथा भवति, परन्तु तथा तु न सङ्गच्छति, अन्वयः तत्र न सङ्गच्छति. अतः एव कश्चन अस्ति प्रकारः वचनविपरिणामः, नाम विपरिणामः वचन किं विपरिणामः किम् उच्यते विपरिणामः चेञ्ज् परिणामं वा, परन्तु तत्र परिभाषिकमस्ति विपरिणाम, परन्तु तस्य अर्थः स एव वचनपरिणामः यथा सङ्ख्याशास्त्रे.
Can we say like, because in the Anuvruti Saita Sutram we have given dvivachanam itau. Itau, because of chutu, the dvivachanam is given instead of ita, it is said as itau.
एक्साक्ट्लि. अपि च आदिः इति अयम् अपि आदि भवति, द्विवचने अपि भवति, तदेव तदेव.
That is what is vachana viparimanamam, I feel.
Exactly.
Example, udharanam, Rama, yogaha jas, chutu sutram itenena, jakarasya itasangya, where jakara falls on, jakara chavargiya asiche, jakara lopa itasangya bhavati, tata tasya lopa itenena sutrena, जकारः लोपः भवति. परिणामं राम भवति, रामयोगः अस् भवति रामाः.
तर्हि तत्र तत्र सकारस्य अपि लोपः भवितुं,
सकारस्य लोपः न भवति न विभक्त्यो सूत्रेण,
न विभक्त्यो तु स्मः. सम्यक्, समीचीनं, समीचीनम्.
अग्रे अग्रिमे गच्छामि वा?
तर्हि अन्यः कोऽपि पतति इति मन्ये, अन्येपि सन्ति. तत्र राजशेखरन् वा अस्ति, राजशेखरन् अस्ति वा? राजशेखरन् महोदय, तर्हि अनन्तरं अञ्जलि भगिनी वा? क्षम्यताम् अञ्जलि भगिनी, तर्हि तदनन्तरं राजशेखरं महोदय लशक् वा तद्यते इति तथा कृपया पदतु.
आम् लशक् वा तद्यते, प्रत्ययस्य आदौ लकारः शकारः अवर्गीयः च वर्णः अस्ति चेत् तस्य इत् संज्ञा भवति, किन्तु तद्धितप्रत्यये न लस् लश्च षश्च कुश्च तेषां समाहारद्वन्द्वः लसकु न तद्धितम् अतद्धितं नञ्ज् नञ्ज् तत्पुरुषः तस्मिन् अतद्धिते लसकु प्रथमान्तम् उपति अतद्धिते सप्तम्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदिः आदि लश् लशकु इत् अतद्धिते. लशकुत्वतद्धिते इति सूत्रं प्रत्ययस्य तत् सूत्रं वदति प्रत्ययस्य आदौ लकारः वा सकारः वा कवर्गीयः वा च वर्णः वा अस्ति चेत् तस्य इत्संज्ञा भवति, किन्तु तद्धितप्रत्यये न. उपदेशे प्रत्ययस्य आदि लसतु तत् लसतु इत् अर्थद्धिते.
सम्यक्, तद्धितम् इति तत्र कश्चन प्रत्ययप्रभेदः अस्ति. तत्र किं सामान्यतः अस्माभिः विभक्तयः इति ज्ञायन्ते, अपि च कृत् प्रत्ययाः सन्ति, यथा तत्र शाकन् इति अस्माभिः दृष्टः प्रत्ययः कश्चन. इदानीं कृत् प्रत्ययाः सर्वे धातोः अनन्तरम् अपि विधीयन्ते, परन्तु तत्र क्रीदन्त तत्र किं तत्र क्रियापदं न सम्भवति, परन्तु कश्चन प्रतिपादिकं किञ्चन तत्रापि निरूप्यते, यथा जल्पाकः इदानीं तत्तु तत्तु प्रतिपादिकं तत्र भवति, न तु क्रियापदं. तत्हिताः तु इमे सर्वे प्रत्ययाः प्रतिपादिकात् अनन्तरम् एव विधीयन्ते. यथा किं तत्र यथा किं किं धर्मः पदमस्ति, तदनन्तरं ताल् प्रत्ययः विधीयते इति चेत् धर्मता इति भवति. तत्तु किञ्चन उदाहरणमस्ति तद्धितप्रत्ययस्य. इदानीं तद्धितप्रत्ययेषु कश्चन तत्र उदाहरणार्थं शः अस्ति, बहुशः इति ज्ञायते वा पदं बहुशः? बहुतः इति अस्मिन् अर्थे. तर्हि तत्र श कश्चन प्रत्ययः अस्ति, तत्र तत्र अस्य प्रत्ययस्य आदौ शकारः एव विद्यते. तत्र सः शकारः आदौ अस्ति, अपि च प्रत्ययस्य आदौ अस्ति, परन्तु अयं प्रत्ययः तद्धितप्रत्ययः, अतः एव तत्र नास्ति अस्य सूत्रस्य विषयः. तर्हि शकारः तिष्ठति एव, तत्र बहुशः इति भवति इति इत्यादिकं. तत्र बहवः बहूनि सन्ति उदाहरणानि. परन्तु इदानीम् अस्माकं विषये तु लषक्व तद्धिते इति सूत्रस्य बहुशः अस्ति एव तत्र विषयः. इदानीं शप् इति शा इति तत्र सर्वदा अनेन सूत्रेणैव शकारः गच्छति. लित् तत्र लकारस्य लकाराणां सर्वदा अपि लकारः तत्र तत्तु क्षम्यतां, तत्तु अन्यः विषयः. परन्तु कु तत्रापि क्विप् इति तत्र अनेके अपि सन्ति प्रत्ययाः, तेषां कु कुवर्गः कवर्गः अस्ति. तत्र भो तर्हि उदाहरणम् अपि पततु.
रामः योगः लसत्व तद्धिते इत्यनेन शकारस्य इत् संज्ञा तदा तस्य लोपः इत्यनेन लोपः भवति. रामः रामयोज योगः अस्
भूधातोः योजनसमये योजनसमये लषक तदिति अप्लैस्.
सम्यक्, परन्तु भवान् एव तत्र समर्पयतु. रामः योगः अस् तत्र किमपि 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 भवति, तदनन्तरं रमान् इति भवति.
न कुत्र आगच्छति उपरि राम अस् अस्ति रामाः, अत्र राम अस् अस्ति रामान्.
तत्र तु पश्यतु तत्र जस् आसीत्, रामः योग जस् आसीत्, अत्र तु राम योग शस् अस्ति. तत्र किञ्चित् भवति, तत्र प्रक्रिया कश्चन अस्ति.
लसत्वे इति सूत्रेण शकारलोपः भवति.
सम्यक्,
सकारलोपः भवति, देन् अस् भवति.
न न चिन्तयतु चिन्तयतु पुनर्गतं शस् इति सुप् प्रत्ययः. सुप्रत्ययः इति चेत् तस्य नाम किं भवति?
विभक्ति.
विभक्तिः एव, सम्यक्. तर्हि विभक्तिः इति चेत् तर्हि तत्र कः प्रकारः अस्ति?
न विभक्तौ तु स्मः.
सम्यक्, अत एव सकारः गच्छति तिष्ठति वा?
तिष्ठति.
सम्यक्, तदेव. इदानीं रामः राम राम शस् इति तत्र अन्ते गत्वा ततो गत्वा रमान् इति भवति. इदानीं किं कुर्मः, इदानीम् अत्र एव समर्पस्थगयामः वा अथवा लोपवीधिमपि पठामः? तत्र भरतीयः के इति वदन्तु.
महोदय
पठामः वा?
स्थगयामः
वा?
I think you stop now because it's 8:45.
आमामां
तथा एव क्षम्यताम् इदानीं तत्र बहु किमपि मध्ये सञ्जातं मया उक्तं परन्तु इदानीमेव स्थगयामः तत्र अग्रिमे पाठे अवश्यम् एतत् करपत्रं तत्र अस्माभिः समाप्ति नेयम् इति मन्ये अपि च पश्यामः इदानीं तत् तादृशी स्थितिः भारते स्यात् इति चेत् अग्रिमे सप्ताहे तर्हि 15 minutes earlier तत्र परन्तु मया किम् ईमेल् लिख्यते सारं तत्र प्रेषयामि इदानीं तत्र समयः तथा एव स्यात् परन्तु मेबि तत्र चेञ्ज् कर्तव्यः इति तत् चिन्तयामः भवतु धन्यवादः
धन्यवादः।